ततो युद्ध परिश्रांतं समरे चिंतया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् उपगम्याब्रवीत् रामम् अगस्त्यो भगवांस्तदा राम राम महाबाहो शृणु मुह्यं सनातनम् येन सर्वान्नदीं वत्स समरे विजयिष्यसे आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् जयावहं जपिन्नित्यम् अक्षय्यं परमं शिवम् सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम् रश्मिमन्तं समुद्यन्तम् देवासुरनमस्कृतम् पूजयस्वदिवस्वन्तम् वासरम् भुवनेश्वरम् सर्वदेवात्मकोहेश तेजस्वी रश्मिभावनः एष देवासुरगणाम् लोकान् पाति गभस्तिभिः एष ब्रह्मा च विष्णुश्च शिवस्कन्द प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साध्या अश्विनौ मरुतो मनुः वायुर्वह्नि प्रजाप्राण ऋतुकर्ता प्रभाकरः आदित्यः सविता सूर्य गगः पूषा गभस्थिमान् सुवर्ण सदृशो वानुः हिरण्यरेता दिवाकरः हरिदश्वसहस्राक्षिः सप्त सप्तिर्मरीचिमान् तिमिरोन्मत शम्भुः त्वष्टामार्ताण्डकोऽंशुमान् हिरण्यगर्भशिशिरः तपनो भास्करो रविः अग्निगर्भोदिते पुत्रः शङ्खशिशिरनाशनः व्योमनातस्तमो भेदि ऋग्यजुस्सामपारगः गणवृष्टिरपां मित्रो विन्ध्यवीति प्लवङ्गमः आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेजः रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते समः पूर्वाय गिरये पश्चिमायात्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जय भद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारङ्गाय नमो नमः नम पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ब्रह्मेशानाच्युतेशाय सूर्ययादित्यवर्चसे बास्वते सर्वभक्षाय रौद्राय बहुशे नमः समुग्नाय हिमग्नाय शत्रुघ्नाय मितात्मने कृतघ्नघ्नाय देवाय ज्योतिषां कथये नमः सप्तचामीकराभाय हरये विश्वकर्मणे नमस्तमोभिनिग्नाय ऋषये लोकसाक्षिणे नाशयत्येष वैभूतम् तमेव सृजति प्रभुः पायत्येष तपत्येष पश्यत्येष गभस्तिभिः सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष चैवाग्निहोत्रम् च फलम् चैवाग्निहोत्रिणाम् देवाश्चक्रतवश्चैव क्रतूणाम् फलमेव च यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः येन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुष कश्चित् नावशीधति राघव पूजयस्वै न मेकाग्रो देवदेवम् जगत्पतिम् एतत्त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यति अस्मिन् क्षणे महाबाहो रावणम् त्वम् जहिष्यसि एवमुक्त्वा ततो गत्यो जगामसयतागतम् एतत् श्रुत्वा महातेजा नष्टशोको भवत्तदा तारायामास सुप्रीतो राघव प्रयतात्मवान् आदित्यम् प्रेक्ष्य जप्त्वेदम् परम् हर्षमवाप्तवान् त्रिराचम्य शुचिर्भूत्व धनुराधाय वीर्यवान् रावणम् प्रेक्ष्य हृष्टात्मा जयातम् समुपागमत् सर्वयत्नेन महता वृत्तस्य वधे भवत् अधरविरवदन्निरीक्ष्य रामम् मुदितमनाः परमम् प्रहृष्यमाणः निशिचरपति संक्षयम् विदित्वा सुरगणमध्यगतो वचस्वरेति